अस्तु, सर्वेषां स्वागतं, पुनः नमस्कारः च. अधुना वयं विद्याधरीग्रन्थे लक्षणग्रन्थे स्मः, अथवा लक्षणभागे स्मः. गतवर्गे तु अस्माभिः लक्षणम् इत्युक्ते किम् इति परिशीलितं. तत्र उक्तमासीत् अव्याप्ति, अतिव्याप्ति, असम्भवदोषरहितः असाधारणधर्मः लक्षणम् इति. अव्याप्तिदोषः, अतिव्याप्ति दोषरहितदोषः, अपि च असम्भवदोषः, एतेषां विषये अपि अस्माभिः परिशीलितमासीत्. एभिः दोषैः विरक्तः अथवा रहितः यः कोऽपि धर्मः, सः असाधारणधर्मः, सः असाधारणधर्मः एव लक्षणम् इति अस्माभिः दृष्टम्. अद्यतनवर्गे यद् करपत्रं प्रेषितमस्ति मया, तत्र इतोपि गभीरतया अस्य विषये किञ्चित् चर्चा भवति इति. तर्हि आरम्भं कुर्मः. करपत्रे अस्तु, बालसुब्रह्मण्यमहोदय आरब्धुम् इच्छति वा, प्रथमपरिच्छेदं पठति वा?
लक्षणं नाम किम्? अव्याप्ति, अतिव्याप्ति, असम्भवदोषरहित, असाधारणधर्मः लक्षणम्. असाधारणधर्मः इत्युक्ते कः? अव्याप्ति, अतिव्याप्ति, असम्भवदोषरहितः, असाधारणधर्मः. तर्हि लक्षणं नाम किं पर्यवसितम्? अव्याप्ति, अतिव्याप्ति, असम्भवदोषरहितधर्मः लक्षणम्. अस्य वाक्यस्य को अर्थः इति अग्रे पश्याम. लक्षणं नाम किम् इति प्रश्नः सरलरूपेण, अव्याप्ति, अतिव्याप्ति, असम्भवदोषं विना, असम्भवदोषं रहित, असाधारणधर्मः लक्षणम् इति उक्तः. असाधारणधर्मः इत्युक्ते कः? पुनः अव्याप्य, अतिव्याप्य, असम्भवदोषरहितः, असाधारणधर्मः लक्षणं नाम किम्? पुनः अव्याप्य, अतिव्याप्ति, एतानि दोषानि रहितधर्मः लक्षणम्.
सम्यक् महोदय, इति अस्माकं परिभाषा आसीत्, गतवर्गे अपि दृष्टं. वस्तुतः लक्षणम् इत्युक्ते असाधारणधर्मः लक्षणं. पुनः असाधारणधर्मः इति किम् इति चेत्, अव्याप्ति, अतिव्याप्ति, असम्भवदोषरहितः धर्मः एव असाधारणधर्मः इति उच्यते. अस्तु, इतः अग्रे सरेम. नूतनतया के के सन्ति, कृपया नामानि.
नमस्ते भगिनि, अहं लक्ष्मी अस्मि.
अस्तु लक्ष्मी भगिनि, नमस्कारः.
जगन्नाथः. जगन्नाथः.
अस्तु अस्तु महोदय, श्रुतं, स्वागतं. करपत्रं पठामः, करपत्रम् उद्घाटितं स्यात् भवतां पुरतः. अस्तु अग्रे, हा विजी भगिनी अग्रे पठति वा?
आं भगिनि, एकनिमिषम्. यथा गौः लक्षणं किम्? अधुना यस्य लक्षणम् उच्यते तत् लक्षणं. कस्य लक्षणम् उच्यते? गौः.
पुनः प्रारम्भतः.
यथा गौः लक्षणं किम्? अधुना यस्य लक्षणम् उच्यते तत् लक्षणं.
लक्ष्यं,
तत् लक्ष्यं, लक्ष्यं, क्षम्यतां भगिनि. कस्य लक्षणम् उच्यते? गोः. तर्हि सर्वाः गावः लक्ष्याः. गोः लक्षणं नाम गवि एव विद्यमानो धर्मो भवेत्, अन्यत्र न भवेत्. निखिलासु अपि गोषु भवेत्, गोः अतिरिक्तेषु न भवेत्. तादृशो धर्मः असाधारणधर्मः. गोः लक्षणं कपिलरूपवत्त्वम् इति उच्यताम्. रूपम् इत्युक्तौ वर्णः. भूमौ मृदः रूपमेव कपिलरूपम् इति. मृत् नाम मृत्तिका. तर्हि कपिलरूपवत्त्वं गवां लक्षणं. कपिलरूपवत्त्वं सर्वासु गोषु भवति वा नाहि कश्चन गावः श्वेतरूपवत्य कश्चन कृष्णरूपवत्यः अतः कपिलरूपवत्त्वस्य अव्याप्तिः लक्षेहते स आवृत्तित्वम् आवृत्तित्वम्
अस्तु तावत् भगिनि पुनः आरम्भतः प्रतिपादय
यथा लक्षणं लक्षणम् इत्युक्ते अव्याप्ति अतिव्याप्ति असम्भदोषरहितः असाधारणधर्मः इति वदामः उदाहरणरूपेण गोः लक्षणं किम् इत्युक्ते यस्य लक्षणम् उच्यते तत् लक्षणं गोः गोः विशेषलक्षणं प्रतिपादनं भवति कस्य लक्षणं
अत्र अन्यैः वक्तव्यमिति म्यूट् करोति वा अस्तु अधुना पुनः एकोति यस्य लक्षणम् उच्यते तद् लक्ष्यम् इति उक्तं खलु अत्र लक्षणम् इत्यस्य प्रतिपादनात् पूर्वं लक्ष्यं किम् इति ज्ञातव्यं तदर्थमेव अत्र आरम्भे एव उक्तं यस्य लक्षणम् उच्यते तत् लक्ष्यम् इति अत्र कस्य लक्षणस्य विषये चर्चयामः अधुना गोः लक्षणं गोः लक्षणम् इति चर्चयामः इति कृत्वा गोः गौः भवति लक्ष्यं गौः लक्ष्यम् इति वदामश्चेदपि सर्वाः गावः लक्ष्यभूताः गौः लक्षणम् इत्युक्ते गोत्वम् इति जातिः यत्र कुत्रापि वर्तते तत् सर्वम् अस्माकं लक्ष्यम् इति अस्ति अस्तु अग्रे विजि भगिनी अग्रिमवाक्यात् पठतु पुनः कस्य लक्षणम्
कस्य लक्षणम् उच्यते गोः तर्हि सर्वाः गावः लक्ष्याः गोः लक्षणं नाम गवी एव विद्यमानो धर्मोः भवेत् इत्युक्ते गोः लक्षणं वक्तुम् इच्छति चेत् गावः विशेष लक्षणम् वक्तव्यं कस्य लक्षणम् उच्यते तर्हि सर्वाः गावः लक्ष्याः अस्तु इदानीं लक्ष्याः गावः लक्षणम् इति गोः लक्षणं नाम
अवगमनं जातं वा न वा इति पश्यामः लक्ष्यम् इति
लक्ष्यम् इति गोः लक्षणं वक्तव्यम् इति लक्ष्यं
न
गोः लक्ष्यं
गावः अथवा धेनुः लक्ष्यम् अथवा
लक्ष्यं
यस्य विषये वदामः अथवा चर्चयामः तदेव लक्ष्यं
तत् लक्ष्यं धन्यवादः वक्तव्यं न लक्ष्यम् इत्युक्ते यस्य लक्षणं वदामः तदेव लक्ष्यः लक्ष्यः
लक्ष्यम्
अधुना लक्ष्यं
स्त्रीलिङ्गे
बहुवचनमध्ये लक्ष्यः गोः लक्षणं नाम गवि एव विद्यमाने धर्मो भवेत् गावः विशेष धर्मः भवेत् अन्यत्र न भवेत् विशेषलक्षणं गोः मध्ये भवेत् अन्यत्र न भवेत् इति चेत् लक्षणम् इति वदामः अस्तु वा भगिनि
यं कमपि लक्षणम् इति स्वीकुर्मः यं कमपि धर्मं
यत्र कुत्रापि विशेषलक्षणं वदामः चेत् गावो अन्यत्र महिषा अश्वः इदानीं मध्ये न भवेत् केवलं गोः मध्ये भवेत् तत् लक्षणम् इति उच्यते अस्तु वा भगिनि
लक्ष्ये भवेत्
लक्ष्ये भवेत्
अन्यत्र
न भवेत् निखिलासु अपि घोषु भवेत् गोः अतिरिक्तेषु न भवेत् निखिलासु मध्ये गोत्वम् अस्ति अतिरिक्तेषु न भवेत् इत्युक्ते
अस्तु पुनः म्यूट् करोतु निखिलासु अपि गोषु भवेत् निखिलासु इत्युक्ते सर्वासु गोषु भवेत् यं कमपि धर्मं स्वीकृत्य परिशीलयामः सः धर्मः लक्ष्यम् इति यद् स्वीकुर्मः तत्र सर्वेषु लक्ष्येषु भवेत् लक्ष्यभूतेषु पदार्थेषु भवेदेव निखिलासु गोषु भवेत् इत्युक्ते सर्वासु गोषु भवेत् गो अतिरिक्तेषु न भवेत् इति चेत् गो अतिरिक्तस्थलेषु महिषादिषु मनुष्येषु पुस्तकेषु लेखनेषु अन्यत्र कुत्रापि सः धर्मः न भवेत् इति प्रथमः नियमः तादृशधर्मः असाधारणधर्मः इति उक्तम् अधुना इतः अग्रे गत्वा प्रायः विद्या भगिनी अस्तु अग्रे अग्रिमवाक्यात् पठतु भगिनि गोः लक्षणम्
गोः लक्षणं कपिलरूपवत्त्वम् इति उच्यताम् रूपम् इत्युक्ते वर्णः इत्युक्तौ वर्णः भूमौ मृदः रूपमेव कपिलरूपम् इति मृद् नाम मृत्तिका तर्हि कपिलरूपवत्त्वं गवां लक्षणं कपिलरूपवत्त्वं सर्वासु गोषु भवति वा नहि काश्चन गावः श्वेतरूपवत्यः काश्चन कृष्णरूपवत्यः अतः कपिलरूपवत्त्वस्य अव्याप्तिः लक्ष्येकदेश अवृत्तित्वं अस्तु इदानीं तत्र गावः लक्ष्यम् इति अस्ति तत्र गोषु लक्षणं कपिलरूपवत्त्वम् इति यदि वदामः अत्र रूपम् इत्युक्ते वर्णः भूमौ अपि रूपं कपिलरूपम् एव भूमौ मृद् इत्युक्ते मृत्तिका तस्य रूपमपि कपिलरूपमेव तर्हि कपिलरूपं गवां लक्षणम् इति गवां लक्षणम् इति वदामः तर्हि कपिलरूपवत्त्वं सर्वासु गोषु भवति वा नहि न भवति यतोहि काश्चन गावः तत्र श्वेतरूपं भवति कुत्रचित् कृष्णरूपं कुत्रचित् अन्यत् रूपम् अतः कपिलरूपम् अव्याप्तिः इत्युक्ते तत्र लक्ष्ये सर्वत्र न भवति कुत्रचित् एव भवति इति कृत्वा अव्याप्तिः लक्ष्येकदेश
हा समीचीनं भगिनी सर्वं सम्यक्तया उक्तम् अत्र स्पष्टीकरणार्थं कपिलरूप यथा भगिनी उक्तवती रूपम् इत्युक्ते वर्णः कलर् इति न्यायशास्त्रे अस्तु मनसि भवेत् कपिलरूपम् इत्युक्ते कपिलवर्णः कपिल इत्युक्ते ब्रौन् इति तदर्थमेव मृदः उदाहरणं दत्तम् अपि च कपिलरूपवत्त्वस्य अव्याप्तिः इति वक्तव्यं यतोहि किमर्थं तथा भगिनि
कपिलरूपवत् इति मतु प्रत्ययः पुनः त्व इति प्रत्ययः योजयामः चेत् तत्र कपिलरूपमेव खलु
हा समीचीनं कपिलरूपं कुत्र कुत्र वर्तते सर्वासु गोषु वर्तते वा
सर्वासु गोषु न वर्तते कुत्रचित् एव वर्तते केषुचित् कासुचित् गोषु एव वर्तते
इति कृत्वा तस्य किं कः दोषः
अव्याप्तिदोषः सर्वत्र नास्ति इति कृत्वा अव्याप्तिदोषः
हा समीचीनम् अस्तु अधुना इतोपि शास्त्रीयरीत्या अव्याप्तिदोषः इत्युक्ते किम् इति परिशीलनम् अग्रे अस्तु भगिनि अग्रे गच्छतु
लक्ष्यैकदेश अवृत्तित्वम् इत्युक्ते अत्र लक्ष्यस्य एकस्मिन् देशे नास्ति चेत् लक्ष्यैकदेश अवृत्तित्वं कपिलरूप आश्रयत्वं गवां लक्षणम् इति उक्तम्। परन्तु गोषु सर्वत्र कपिलरूपवत्वं न वर्तते। अस्माभिः यत् लक्षणम् उच्यते तत् सर्वासु लक्ष्यासु वर्तते इति प्रदर्शनीयम्। परन्तु कपिलरूपवत्वं यत् लक्षणम् उक्तं सर्वासु गोषु नास्ति। अतः एतद् लक्षणम् अव्याप्तिदोषग्रस्तं लक्ष्यैकदेश अवृत्तित्वं। कृष्णवर्णीयासु गोषु न वर्तते कपिलरूपाश्रयत्वं, नाम कृष्णवर्णीयगोषु कपिलरूपाश्रयत्वम् अवृत्तित्वं। कासाञ्चित् गवां वृत्तित्वाभावः अस्ति कपिलरूप आश्रयत्वस्य, अयम् एव अव्याप्तिदोषः। अतः कपिलरूपाश्रयत्वं गोः लक्षणम् इति मास्तु। अस्तु, अत्र लक्ष्यैकदेशवृत्तित्वं यत्र अव्याप्तिदोषः अस्ति
शास्त्रे
अवृत्तित्वं, लक्ष्यैकदेश अवृत्तित्वम् इति शास्त्रीयरीत्या वदामः अव्याप्तिदोषस्य नामकरणम् इति चिन्तयामि। लक्ष्यैकदेश अवृत्तित्वम् इत्युक्ते किम् इति चेत् तत्र अवृत्तित्वं, वृत्तित्वम् इत्युक्ते विद्यमानत्वम्, अवृत्तित्वम् इत्युक्ते अविद्यमानत्वम् इत्युक्ते नास्ति, कुत्रचित् नास्ति, एकदेशे नास्ति, लक्षणम् एकदेशे नास्ति। लक्ष्यस्य एकस्मिन् देशे नास्ति चेत् लक्ष्यैकदेश अवृत्तित्वं, तदेव कपिलरूपाश्रयत्वं गवां लक्षणम् इति उक्तं। तर्हि इदानीम् अत्र कपिलरूपमेव गोः लक्षणम् इति वदामः चेत् पुनः, परन्तु गोषु सर्वत्र कपिलरूपवत्वं न वर्तते इति जानीमः एव। अस्माभिः यद् लक्षणम् उच्यते तत् सर्वासु लक्ष्यासु वर्तते इति प्रदर्शनीयम्। यद् यद् लक्षणवाक्यम् अस्ति तत् लक्ष्यासु सर्वत्र तादृशवाक्यं, सर्वत्र लक्षणं सर्वत्र भवेत्। अत्र कपिलरूपं सर्वासु गोषु नास्ति इति कृत्वा कपिलरूपं लक्षणं न भवितुम् अर्हति। परन्तु कपिलरूपवत्वं यत् लक्षणम् उक्तं सर्वासु गोषु नास्ति, तदेव अतः एव लक्षणम् अव्याप्तिदोषग्रस्तम्, अव्याप्तिदोषग्रस्तं यतोहि एकस्मिन् देशे एव तादृश लक्षणम् अस्ति, सर्वत्र नास्ति। अतः एतद् लक्षणम् अव्याप्तिदोषग्रस्तं लक्ष्यैकदेश अवृत्तित्वं। कृष्णवर्णीयासु गोषु न वर्तते कपिलरूप आश्रयत्वं, नाम कृष्णवर्णीया गोषु कपिलरूप आश्रयत्व अवृत्तित्वम्। अत्र या गोः कृष्णवर्णीया वर्णीया अस्ति तस्यां कपिलरूपं नास्ति, अतः कपिलरूपाश्रयस्य अवृत्तित्वम् इत्युक्ते कपिलरूपस्य अविद्यमानत्वं। कासाञ्चित् गवां वृत्तित्व अभावः इत्युक्ते अत्र तदेव, अत्र सर्वत्र कपिलरूपं नास्ति, वृत्तित्व अभावः, कपिलरूपस्य अभावः अस्ति कुत्रचित्।
अत्र वाक्ये किञ्चन परिष्कारः अपेक्षितः, कासाञ्चित् गोषु,
कासाञ्चित्
कासान् षष्टिविभक्त्यामेव अस्ति, कासाञ्चित् अस्तु, हा भवितुमर्हति भगिनि,
कासां गवां,
कासुचित् गोषु अथवा कासाञ्चित् गवां वृत्तित्वाभावः, कस्य
कपिलरूपस्य अभावः
अथवा कपिलरूपाश्रयत्वस्य,
कपिलरूपाश्रयत्वस्य अभावः अस्तु, अयमेव अव्याप्तिदोषः। अतः कपिलरूप आश्रयत्वं गोः लक्षणम् इति मास्तु, यतोहि सर्वत्र नास्ति कपिलरूपाश्रयत्वं, कुत्रचिदेव अस्ति इति कृत्वा अव्याप्तिदोषः भवति, अतः तादृशलक्षणं मास्तु।
हा समीचीनमस्ति भगिनि। अपि च यथा पूर्वस्मिन् वर्गे दृष्टवन्तः, एतानि लक्षणानि लक्षणाभासाः, लक्षणस्य आभासः इत्युक्ते जस्ट् एन् अपियरेन्स् आफ् लक्षणम् इति, वस्तुतः लक्षणं नास्ति। यः कोऽपि कपिलरूपवत्वं गोः लक्षणम् इति वदति चेत् तत्र लक्षणाभासः एव, लक्षणं नास्ति। अपि च कपिलरूपवत्वम् इत्युक्ते कपिलरूपाश्रयत्वम्। अस्तु विद्या भगिनी, कपिलरूपस्य आश्रयः कः?
कपिलरूपस्य आश्रयः गोः, गौः एव आश्रयः, गौः, गौः।
तर्हि कपिलरूपस्य आश्रयः गौः इति कृत्वा तस्यां कीदृशः धर्मः भवेत्?
कपिलरूप आश्रयं गौः इति कृत्वा तस्यां गौः गोत्वम् अस्ति, जातिः
इति समीचीनं. गोत्वम् इति एकः धर्मः अस्ति, सः धर्मः जातिः अपि इति सत्यमेव. परन्तु मम प्रश्नः अस्ति, कपिलरूपाश्रयः इति अधिकृत्य गौः गवि कीदृशः धर्मः स्यात् इति. भवती पठितवती एव अधुना
कपिलरूपाश्रयः.
न अहं केवलं पृच्छामि यत् कपिलरूपम् इति अधिकृत्य कपिलरूपस्य आश्रयः गौः इति जानीमः खलु. तर्हि कपिलरूपाश्रयः इति स्वीकृत्य तस्मिन् कीदृशः धर्मः इति चेत् कपिलरूपाश्रयत्वम्.
तर्हि कपिलरूपाश्रयत्वम् अथवा कपिलत्वम् इत्यपि वक्तुं शक्नुमः वा?
कपिलत्वम् अग्रे अद्यतनविषयः सः एव. किं कुत्र वर्तते इति परिशीलनीयं. कपिलरूपत्वम् इति कपिलरूपे वर्तते वस्तुतः. नीलरूपत्वं नीलरूपे वर्तते. परन्तु कपिलरूपवत्त्वं गवि वर्तते. कपिलरूपवत्त्वम् एव कपिलरूपाश्रयत्वम् इति वक्तुं शक्नुमः. तदर्थमेव अत्र पर्यायवाचिशब्दरूपेण उक्तं कपिलरूपाश्रयत्वं न लक्षणम् इति अन्तिमवाक्ये. अतः कपिलरूपाश्रयत्वं गोः लक्षणमिति मास्तु, नाम कपिलरूपवत्त्वं गोः लक्षणम् इति मास्तु इति अर्थः. स्पष्टता अस्ति वा सर्वेषां मनसि? अस्तु, समीचीनं.
महोदय, एकः प्रश्नः. लक्ष्यैकदेश अवृत्तित्वम् इति, लक्ष्यस्य एकस्मिन् देशे नास्ति चेत् तत् किञ्चित् वदतु महोदय.
अस्तु, भवतः मनसि किमस्ति तस्य विषये?
एकदेशे इत्युक्ते एकः स्थाने इति, किञ्चित् रीजन्
तत्र किञ्चित्
अवृत्तित्वं मतलब् न वर्तते.
न वर्तते इति सत्यं,
किञ्चित् लक्ष्यं न वर्तते तत्.
न महोदय, शृणोतु, किञ्चित् रीजन् इति उक्तवान् खलु. किञ्चित् रीजन् अथवा एकदेशः, किञ्चित् रीजन् कुत्र इति वदतु.
यूनिवर्सल्, सर्वत्र.
लक्ष्यैकदेश इति उक्तम् इत्युक्ते किं? लक्ष्यस्य एकदेश. लक्ष्यस्य एकदेश इत्युक्ते लक्ष्यस्य किञ्चित् रीजन् इति किल. अधुना अस्माकम् लक्ष्यं किम्?
सर्वत्र लक्षणं किम् इति, गोः लक्षणं किम् इति.
अस्माकं लक्ष्यं किम्?
लक्ष्यं सर्वासु गावः.
सर्वाः गावः
लक्ष्य.
लक्ष्यभूताः सर्वाः गावः इत्युक्ते यत्र यत्र गोत्वं तद् सर्वम् अस्माकं लक्ष्यम् इति बुद्धं वा? लक्ष्यस्य एकदेशः इत्युक्ते अधुना वदतु किमिति.
कानिचित् गावः.
काश्चन गावः, सर्वाः गावः न, काश्चन एव गावः लक्ष्यस्य एकदेशः खलु. तर्हि कासुचित् गोषु अथवा काश्चन गावः तासु एव वर्तते, अपरत्र न वर्तते इति कृत्वा लक्ष्यैकदेश अवृत्तित्वम्. कपिलरूपवत्वम् इति धर्मः अथवा कपिलाश्रयत्वम् इति धर्मः तादृशः अव्याप्तिदोषग्रस्तः. अव्याप्तिदोषः इत्युक्ते किं? लक्ष्यैकदेश अवृत्तित्वम् इति. उदं वा?
आं महोदय, बुद्धं बुद्धं, सम्यक्,
समीचीनं. तर्हि अस्मिन् करपत्रे एकमेकं धर्मम् अथवा लक्षणं स्वीकृत्य वस्तुतः लक्षणम् अस्ति न वा इति परिशीलनं प्रवर्तमानम् अस्ति. अस्तु, इति अव्याप्तिदोषग्रस्तलक्षणस्य उदाहरणम् आसीत् कपिलरूपवत्त्वम् इति.
भगिनि, एकसन्देहः, लक्षैकदेशवृत् आवृत्तित्वं भवती उक्तवती लक्षस्य कश्चित् प्रदेशे एव वर्तते वर्तते यलक्षणं वयं उदाहरणं स्वीकुर्मः, आवृत्तित्व वृत्तित्वम् अपि भवतीम् अर्हति वा लक्ष्य एक
महोदय? वस्तुतः अव्याप्तिदोषः इत्यस्य विवरणमस्ति लक्ष्य एकदेश अवृत्तित्वम्. अवृत्तित्वम् इति अव्याप्तिदोषस्य विवरणे दत्तं, परन्तु तस्य अर्थः कः? अपरत्र वर्तेत, लक्ष्यस्य एकदेशे वर्तते, लक्ष्यस्य एकदेशे न वर्तते इति एव. परन्तु अव्याप्तिदोषस्य परिभाषायाः कृते लक्षैकदेश अवृत्तित्वम् अवृत्तित्वम् आदाय अव्याप्तिदोषविवरणं कृतमस्ति अत्र. बुद्धम्?
हा भगिनि,
अस्तु महोदय.
तर्हि लक्षैकदेश अवृत्तित्वम् इत्युक्ते अव्याप्तिदोषः
इति मम ई पत्रे अपि
वक्तुं शक्यते.
हा, इति एव उक्तं, मम ई पत्रे अपि एतदेव योजितम्. अव्याप्ति हि इत्युक्ते इक्वल् टु इति लक्षैकदेश अवृत्तित्वम् इति भवति.
इदानीं सम्यक्तया बुद्धम्. आम्, सम्यक्.
अपि च कपिलरूपाश्रयत्वम् इति उदाहरणमस्ति. कस्य उदाहरणम्? अव्याप्तिदोषग्रस्तधर्मस्य उदाहरणम् इति अस्ति तथा. अस्तु, अग्रे रघुपतिमहोदय, भवतः क्रमः, गच्छतु अग्रे.
आम्, शृङ्गं, या शृङ्गवती अस्ति सा शृङ्गिणी, तस्यां शृङ्गित्वं वर्तते. गोः असाधारणधर्मः शृङ्गित्वं वा? अधुना दोषः नास्ति किल? सर्वासु गोषु शृङ्गित्वं विद्यते. प्रत्येकस्याम् अपि गवी शृङ्गं तु भवत्येव. तर्हि शृङ्गित्वं गोः लक्षणम् इत्युच्यते चेत् अव्याप्तिदोषः नास्ति, लक्ष्यस्य एकदेशे शृङ्गित्वं नास्ति इति तु नास्ति एव. निखिलासु गोषु वर्तते शृङ्गित्वं, परन्तु अन्यत्र अस्ति वा? महिषे हरिणे च शृङ्गित्वं विद्यते किल? तर्हि इदं लक्षणम् अतिव्याप्तं. सर्वासु गोषु शृङ्गित्वं वर्तते सत्यं, परन्तु गोः अतिरिक्तेषु गतम् एतत् लक्षणं. महिषेषु अपि अस्ति शृङ्गित्वम्, अत एव अत्र उक्तम् अतिव्याप्तिः. अलक्ष्यवृत्तित्वम् इति अत्र लक्ष्याः गावः, अलक्ष्याः महिषादयः अत्रापि लभ्यते शृङ्गित्वम्. शृङ्गित्वम् अतिव्याप्तिदोषग्रस्तम्. अतिव्याप्तिदोषसहितत्वात् शृङ्गित्वं गोः लक्षणम् इति मास्तु. पूर्वं वयं दृष्टवन्तः कपिलरूप आश्रयत्वं गोः लक्षणं मास्तु इति कारणम् अव्याप्तिदोषः. अधुना वयं अन्यापि एकं लक्षणं स्वीकुर्मः चेत् शृङ्गं यत्र शृङ्ग अस्ति सा शृङ्गवती इति वयं वदामः. शृङ्गः सर्वासु गोषु वर्तते, अतः शृङ्गत्वं गोः लक्षणं स्वीकुर्मः चेत्
किञ्चित् वाक्यशः गच्छतु महोदय, नूतनानि पदानि सन्ति खलु.
ओके,
शृङ्गवती शृङ्गवती इत्युक्ते शृङ्गिणी इति तत्र
शृङ्गवती 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 इत्युक्ते शृङ्गवती अस्ति सा शृङ्गिणी तस्यां शृङ्गित्वं वर्तते शृङ्गित्वं लक्षणं गुणः वर्तते शृङ्गित्वं
तस्य विषये किञ्चित् वक्तव्यं शृङ्गवती तु जानीमः मतुप् इति प्रत्ययः अस्तु यथा गन्धवती इति स्त्रीलिङ्गे शृङ्गवती परन्तु अत्र शृङ्गित्वम् इति उक्तं खलु त्वं त्वम् इति योजनेन धर्मः निष्पद्यते यत्र कुत्रापि त्वम् इति वदति चेत् सः शब्दः धर्मं सूचयति अथवा स्वभावं सूचयति स्वभावः एव धर्मः कुत्रचित् अस्ति इति धर्मः तर्हि शृङ्गित्वम् इति पदं कुतः आगतम् इति चेत् शृङ्ग प्लस् इनि इति एकः प्रत्ययः अस्ति इनि प्रत्ययः यथा गुणी इति यस्मिन् गुणः सः गुणी इति वदामः खलु अथवा स्त्रीलिङ्गे गुणिनी इति कृत्वा तद्वदेव यस्मिन् शृङ्गं सः शृङ्गी अत्र गौः गौः इति तस्य लिङ्गं किम् महोदय गौः इत्यस्य लिङ्गं किं
गौः स्त्रीलिङ्ग
स्त्रीलिङ्गे इनि प्रत्ययं प्रत्ययम् उपयुज्य पदं किं भवति
शृङ्गी
गुणी गुणिनी वत् शृङ्गिणी
शृङ्गिणी सारी शृङ्गिणी
शृङ्गिणी ज्ञानी ज्ञानी इति वदामः खलु यस्मिन् ज्ञानमस्ति
ज्ञानिनी
ज्ञानी इति पुल्लिङ्गे ज्ञानिनी इति स्त्रीलिङ्गे तद्वत् शृङ्गिणी शृङ्गिणी का
शृङ्गिणी गौः
हा गौः योगी इति वदामः खलु योगः अस्मिन् वा योगी अपि च पुल्लिङ्गे हा स्त्रीलिङ्गे योगिनी इति तद्वदेव इति वार्ता इति शृङ्गिणी इति आगतं पदं परन्तु अत्र शृङ्गित्वम् इति उक्तम् शृङ्गित्वम् इति पदं त्वा इति प्रत्ययम् उपयुज्य सुन्दरः सुन्दरत्वम् इति कृत्वा तद्वदेव शृङ्गि इति प्रातिपदिकम् इनि प्रत्ययम् इनि इति प्रत्ययम् उपयुज्य शृङ्गि इति प्रातिपदिकं तस्मात् प्रातिपदिकात् त्वा प्रत्ययः उपयुज्य शृङ्गित्वम् इति आगतं पदम् उद्धं वा अथवा शृङ्गवत् मतुप्रत्ययम् उपयुज्य शृङ्गवत् इति प्रातिपदिकं तस्मात् शृङ्गवत्वम् इति धर्मः निष्पद्यते शृङ्गवत्वम् अथवा शृङ्गित्वम् इति भावसूचकपदम् इत्युक्ते धर्मः
सर्वेषां भगिनी तत्र प्रश्नः अस्ति अत्र शृङ्गित् केवलं शृङ्गम् अस्ति इति एव वदामः चेत् तत्र कः दोषः अत्र शृङ्गित्वम् इति वदनेन तत्र आधार आदेयभावः सूचयति वा
हा समीचीनं भगिनि इति एव वार्ता मतुप् अथवा इनि प्रत्ययः तदेव सूचयति अस्मिन् किमपि अस्ति इति अस्मिन् किम् अस्ति शृङ्गमस्ति अथवा अस्यां गवि शृङ्गमस्ति इति कृत्वा सा शृङ्गिणी अथवा शृङ्गवती तम् आधाराधेयभावम् अधिकृत्य धर्मः निष्पन्नः अधुना त्वम् इति प्रत्ययम् उपयुज्य पुनः भवती यथा उक्तवती शृङ्गम् इति एव सूचयति शृङ्गमपि गवि अस्ति शृङ्गित्वमपि गवि अस्ति अस्तु 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 महोदय अग्रे गच्छतु गोः असाधारण
गोः असाधारणधर्मः शृङ्गित्वं वा अधुना दोषः नास्ति किल सर्वासु गोषु शृङ्गित्वं विद्यते प्रत्येकस्याम् अपि गवि शृङ्गं तु भवत्येव तर्हि शृङ्गित्वं गोः लक्षणम् इत्युक्ते चेत् अव्याप्तिदोषः नास्ति अत्र असाधारणधर्मः शृङ्गित्वं सर्वासु गोषु वर्तते तर्हि एतत् लक्षणं अव्याप्तिदोषरहितः अस्ति, परन्तु अव्याप्तिदोषरहितः अस्ति. अतः वयं शृङ्गित्वम् इति गोः लक्षणम् इति स्वीकुर्मः न, लक्ष्यस्य न स्वीकुर्मः.
प्रश्नः प्रथमतया प्रश्नः अस्ति स्वीकुर्मः वा इति.
स्वीकुर्मः वा.
पूर्वस्मिन् परिच्छेदे कश्चन धर्मः आसीत्, सः धर्मः अव्याप्तिदोषग्रस्तः खलु, कपिलरूपवत्वम् इति. अधुना शृङ्गित्वम् इति धर्मः अव्याप्तिदोषग्रस्तः वा?
अव्याप्ति न, शृङ्गित्वं सर्वासु गोषु वर्तते.
सर्वासु गोषु वर्तते इति कृत्वा अव्याप्तिदोषः निवारितः. तत्र परिहारः प्राप्तः, परन्तु अन्यत् किम् अस्ति अत्र, अन्यः कः दोषः अस्ति इति परिशीलनीयम् अधुना शृङ्गित्वम् इत्यस्मिन्.
लक्ष्यस्य
पठतु महोदय, क्षम्यताम्.
लक्ष्यस्य एकदेशे शृङ्गित्वं नास्ति इति तु नास्ति एव. लक्ष्यस्य एकदेशशृङ्गित्वं नास्ति, सर्वत्र अस्ति, लक्ष्ये सर्वत्र अस्ति शृङ्गित्वम्. निखिलासु गोषु, निखिलासु गोषु वर्तते शृङ्गित्वं, सर्वासु गोषु वर्तते शृङ्गित्वं, परन्तु अन्यत्र अस्ति वा? महिषे हरिणे च शृङ्गित्वं विद्यते किल, तर्हि इदं लक्षणम् अतिव्याप्तम्. अधुना शृङ्गित्वं पश्यामः चेत् शृङ्गित्वं केवलं गोषु एव न वर्तते, परन्तु अन्यापि अन्यापि अन्या मृगां
मृगासु
अन्येषु मृगेषु अपि वर्तते इति. अतः यदा यत् लक्षणं भवति तत् अन्ये अपि अलक्ष्ये अपि वर्तते, तत् तदा तत् लक्षणम् अतिव्याप्ति अतिव्याप्तम् इति लक्षणम् अतिव्याप्तम् इति उच्यते.
महोदय बहु समीचीनम् आसीत्, भवान् उक्तवान् खलु अलक्ष्ये वर्तते इति. अत्र लक्ष्यम् इत्युक्ते किम्, अलक्ष्यम् इत्युक्ते किम् इति वदति वा?
लक्ष्यम् इत्युक्ते वयं पदार्थस्य धर्मः कः, असाधारणधर्मः इति वयं डिफैन् कर्तुं
ज्ञातुम्
इच्छते, ज्ञातुम् ज्ञातुम्
अहं किमर्थं वदामि, पुस्तकं वारं वारं पृष्ठानि पठन्तु इत्युक्ते तदर्थमेव, भाषा सरलतया आगच्छति मुखात् अधिकपठनेन. अस्तु, किन्तु बहु समीचीनम् आसीत् महोदय, भवान् अवगतवान् ज्ञातुम् इष्टः पदार्थः लक्ष्यम्. अस्तु, ज्ञातुम् इष्टः पदार्थः कः अत्र?
गौः.
गौः इति लक्ष्यम्. अलक्ष्यं किम्?
अलक्ष्यं गौः विहाय सर्वापि.
बहु समीचीनम् इति अस्ति. तर्हि अधुना वदतु, शृङ्गित्वम् इति केवलं गोषु वर्तते वा?
न, सर्वे अदर् सोरि सर्व सर्वे अन्य अन् सर्वेषु अन्येषु प्राणिषु अपि वर्तते.
बहुषु प्राणिषु,
बहुषु प्राणिषु, सोरि,
सिंहस्य नास्ति शृङ्गं, गो अतिरिक्तेषु बहुषु वर्तते. गो अतिरिक्तम् इत्युक्ते गो भिन्नम् इति, गोभिन्नेषु अपरेषु स्थलेषु वर्तते यद् अस्माकं लक्ष्यं नास्ति, अतः इदं लक्षणम् अतिव्याप्तम्. अस्तु, अग्रे पठतु महोदय. अधुना
सर्वासु गोषु शृङ्गित्वं वर्तते सत्यं, परन्तु गो अतिरिक्तेषु गतम् एतत् लक्षणम्. सर्वासु गोषु शृङ्गित्वं वर्तते, परन्तु गोः विहाय अतिरिक्तेषु प्राणिषु अपि एतत् लक्षणं वर्तते. महिषेषु अपि अस्ति शृङ्गित्वम्, अतः एव अत्र उक्तम् अतिव्याप्तिः. व्याप्तप्रदेशात् अतिक्रम्य यत् लक्षणं भवति तत् अतिव्याप्तिः.
हा, बहु समीचीनं, सम्यक् सम्यक्तया बुद्धम् उक्तं च. व्याप्तिः हा व्याप्तिः इत्युक्ते यत्र यत्र तत्र तत्र इति व्याप्तिः यत्र तत्र गोत्वं तत्र तत्र किमपि अस्ति वा इति परिशीलनीयम् अतिव्याप्तिः इत्युक्ते भवता यदुक्तम् अतिक्रम्य व्याप्तप्रदेशम् अतिक्रम्य अथवा लक्ष्यम् अतिक्रम्य अपरत्र वर्तते इति अतिव्याप्तिः अधुना पूर्वस्मिन् परिच्छेदे अव्याप्तिः इति आसीत् खलु इत्युक्ते यद् लक्ष्यं तत्रैव व्याप्तिः नास्ति पूर्णतया इति अव्याप्तिः अधुना शृङ्गित्वम् इत्यस्य अतिव्याप्तिदोषः अस्तु महोदय अग्रे पठतु
अलक्ष्यवृत्तित्वम् इति अलक्ष्यवृत्तित्वम् इति अलक्ष्यवृत्तित्वम् इत्युक्ते अलक्ष्येषु पदार्थेषु यत् भवति तत् अलक्ष्यवृत्तित्वम् इति
सम्यक्
अत्र लक्ष्याः गावः अलक्ष्याः महिषादय अत्रापि लभ्यते शृङ्गित्वं शृङ्गित्वम् अतिव्याप्तिदोषग्रस्तम् अतिव्याप्तिदोषसहितत्वात् अतिव्याप्तिदोषसहितत्वात् शृङ्गित्वं गोः लक्षणम् इति मास्तु अतः शृङ्गित्वम् अतिव्याप्तिदोषग्रस्तः अस्ति यथा गोषु वर्तते तथा महिषादय अपि वर्तते अतः अतिव्याप्तिदोषग्रस्तम् अतिव्याप्तिदोषसहितत्वात् शृङ्गित्वं गोः लक्षणम् इति मास्तु इति
समीचीनं तर्हि बुद्धं स्यात् खलु अलक्ष्येषु अपि वर्तते शृङ्गित्वं केवलं लक्ष्यासु गोषु न इति कृत्वा शृङ्गित्वं कीदृशदोषग्रस्तम् शृङ्गित्वम् अतिव्याप्तिदोषग्रस्तम् अपि च अतिव्याप्तिदोषरहितं न अतिव्याप्तिदोषसहितः धर्मः तादृशसहितत्वात् शृङ्गित्वं गोः लक्षणमिति न भवितुमर्हति लक्षणाभासः एव पुनः लक्षणस्य आभासः इति वदामः अस्तु अस्तु तर्हि समीचीनम् इत अग्रे सरेम भानुचैतन्य महोदय
आम् अनन्तरम् असम्भवः एकशफत्वं गोः लक्षणमिति वदामः एकः शफः यस्याः सा एकशफा महोदय शफा इत्युक्ते
शफा इत्युक्ते गवाम् अथवा प्राणिनां पादे हूफ् इति वदामः खलु महोदय हूफ्स् इति पादस्य विशेषः इति चिन्तयतु डिजिट्स् इव इत्युक्ते फिङ्गर्स् इव इति चिन्तयतु तत्र प्राणिषु वर्तते
शपः इत्युक्ते एकः शपः
इतोपि स्पष्टतायै पदं न आगतं मनसि क्ला इति अस्ति खलु सिंहस्य अथवा कस्यचिदपि तद्वत् क्ला इति चिन्तयतु एकशप अथवा एकमेव क्ला इति लक्षणम् इति स्वीकृत्य परिशीलयामः इति
एकशपः यस्याः सा एकशपः गोः पादे विशेषाङ्गं वर्तते बहु कठिनं चेति अश्वे अपि भवति परन्तु गोः पादे कति शफाः भवन्ति द्वौ शफौ एकस्तु न भवति अपि तु द्वौ द्वावेव अश्वस्य एक एव शफः किञ्च गोः द्वौ तर्हि एकशफत्वं कुत्र वर्तते अश्वे गोषु तु नास्त्येव अस्माकं लक्ष्याः काः निखिलाः गावः तत्र तु एकशफत्वं नास्ति लक्ष्यसामान्य वृत्तित्वं लक्ष्यसामान्ये अभावः अथ असम्भवः इति उच्यते गवि सर्वत्र द्विशफत्वं स्मर्यतां लक्ष्यस्य एकदेशे कपिलरूपत्वं न वर्तते स्म परन्तु अत्र एकशतत्वविषये सामान्ये अपि नास्ति, कुत्रापि नास्ति. अतः कपिलरूपत्वविषये अव्याप्तिः एकशतत्वविषये.
महोदय, अत्र महान् भेदः अस्ति, सावधानतया पठनीयं. यतोहि कपिलरूपवत्वविषये, कपिलरूपत्वविषये न उक्तं, कपिलरूपवत्वविषये. अग्रे गत्वा इतोपि किञ्चित् परिशीलयामः किमर्थमिति. परन्तु कपिलरूपवत्वम् इति धर्मः गवि अस्ति, न कपिलरूप रूपत्वम्.
कपिलरूपत्वं
मनसि स्पष्टता भवेत् अग्रे गमनात् प्राक्. कपिलरूपत्वम् इति कुत्र न न न अस्तु, नीलरूपत्वं कुत्र अस्ति? वयं सामान्यं
नीलरूपत्वं कुत्रापि अस्ति
महोदय.
कुत्रापि द्रव्ये अस्ति.
एकनिमिषः, प्रश्नः एवं भवेत्, नीलरूपत्वम् इति जातिः कुत्र अस्ति?
नीलरूपत्वम् इति नीलरूपद्रव्ये अस्ति.
नीलरूपम् इति द्रव्यः न, द्रव्यं न, गुणः खलु. रूपम् इति गुणः,
गुणः
नीलरूपे सामान्यं द्रव्यगुणकर्मसु भवति. नीलरूपमिति गुणः, तस्मिन् नीलरूपत्वम् इति जातिः अथवा सामान्यमस्ति. एवमेव कपिलरूपत्वं कुत्र अस्ति?
तदपि सामान्ये अस्ति, कपिलरूप सामान्य अस्ति.
कपिलरूपत्वम् इति एव सामान्यं, जातिः खलु. समानानां धर्मः सामान्यं, सामान्यम् इति यथा नीलरूपत्वम् इति जातिः अथवा सामान्यं नीलरूपे अस्ति, तद्वद् कपिलरूपत्वम् इति कुत्र अस्ति?
कपिलरूपजाति,
कपिलरूपत्वम् इति जातिः, सा जातिः कपिलरूपे अस्ति. अवगच्छति वा महोदय?
महोदय, आम्, जातिः कपिलरूपे अस्ति.
जातिः कपिलरूपे अस्ति. जातेः नाम किम्?
कपिलरूपत्वम्.
सम्यक्, कपिलरूपत्वं कपिलरूपे अस्ति. परन्तु अत्र कपिलरूपवत्वम् इति उक्तं, तदर्थमेव स्पष्टता आवश्यकी इति उक्तवती. कपिलरूपवत् त्वं गवि अस्ति. अस्तु, अधुना पठतु अन्तिमवाक्यम्. अतः कपिलरूपवत्,
अतः कपिलरूपवत्वविषये अव्याप्तिः एकशतत्वविषये असम्भवः. इत्थम् अत्र उक्तं लक्ष्यसामान्य अवृत्तित्वं नाम सर्वासु सर्वासु लक्ष्यासु नास्ति. अनन्तरम् इदानीम् असम्भवदोषः इति परिशीलयामः. एकशतत्वं गोः लक्षणमिति वदामः चेत् यदि एकशतः यस्याः स एकशता, तदपि विग्रहवाक्यमेव. गोः पादे विशेषशृङ्गं वर्तते, बहु कठिनं चेति
विशेषाङ्गं
वर्तते.
अङ्गम् इति यदुक्तम् अथवा विशेष अवयवः, तदेव शफा इति. अस्तु, अत्र इतोपि किञ्चित् वदामि, अवगमनं नास्ति चेत् चिन्ता नास्ति. एकशपत्वं गोः लक्षणम् इति उक्तं खलु. एकशपत्वं कुत्र वर्तते महोदय? यथा कपिलरूपत्वं, यथा कपिलरूपत्वं कपिलरूपे वर्तते, एकशपत्वम्
एकशफे वर्तते,
अथवा एकशफा शफे वर्तते, सत्यं. परन्तु अत्र किम् उक्तम् इति चेत्, एकशपः यस्याः सा एकशपा इति बहुव्रीहिसमासः कृतः. अस्तु, एकशफा इत्युक्ते गौः. समासविषये अग्रे पठितुं शक्नुवन्ति अपरेषु वर्गेषु, परन्तु एकशफा इत्युक्ते गौः. यथा सुन्दरः इत्यस्य सुन्दरत्वं, तद्वत् अत्र एकशपा इति गौः इति स्वीकृत्य तस्याम् एकशपत्वम् इति वक्तुं शक्यते. एकशपा गौः अथवा एकशपः अश्वः इति चिन्तयतु. एकशपः अश्वः, एकशपा गौः इति वदामश्चेत् यस्याः अथवा यस्य एकशप तादृशप्राणी इति चिन्तयामश्चेत् तस्मिन् एकशपत्वम् इति वर्तते धर्मः. उद्दं वा तादृश बहुव्रीहिसमासं कृत्वा एव एकशपत्वं गोः लक्षणम् इति वक्तुं शक्यते. परन्तु वस्तुतः एकशपवत्वं गोः लक्षणम् इति स्वीकार्यम्. अस्तु अस्तु, अधिकम् अस्ति चेत् चिन्ता नास्ति, अग्रे गच्छतु महोदय.
गोपादे अधः यद्वर्तते अङ्गं तत् एव तद् अश्वे अपि भवति. एतत् शपा अश्वे अपि भवति, परन्तु गोः पादे कति शपाः भवन्ति इति परिशीलयामः. गोः पादे द्वौ शपौ द्वौ शपोः अस्ति, एकस्तु न भवति. एकशप न द्वौ शपौ तत्र वर्तते गोः. अश्वस्य एक एव शपः, किञ्च गोः द्वौ. तर्हि एकशपत्वम् एकशपत्वं कुत्र वर्तते इति परिशीलयं चेत् अश्वे एव वर्तते, गोषु तु न वर्तते. अतः अस्माकं लक्ष्यं तु सर्वासु गावः,
सर्वाः
किन्तु एक एव सर्वासु गावः किन्तु एक एव सर्वासु.
अस्माकं लक्ष्याः काः? निखिलाः अथवा सर्वाः गावः प्रथमाविभक्त्यां खलु सर्वासु गावः इति न वक्तुं
शक्यते. क्षम्यताम् अहं सर्वाः गावः किन्तु एक एव गोः अपि एकशतं नास्ति.
सत्यम्.
अस्माकं लक्ष्याः काः? निखिला गावः. तत् एकशतत्वं नास्ति. लक्ष्यसामान्य वृत्तित्वं लक्ष्यसामान्ये अभावः.
अवगच्छति वा?
लक्ष्य तु गावः महोदय, सरलं तु अस्ति किन्तु वक्तुं.
अस्तु, प्रयत्नं किञ्चित् प्रयत्नं करोतु. लक्ष्यसामान्य अत्र सामान्यमिति जातिः न, लक्ष्यसामान्य इत्युक्ते लक्ष्यसर्वासु अवृत्तित्वं वा वृत्तित्वं वा? एकशपत्वम् अथवा एकशपवत्वम् इति धर्मः न वर्तते एव, परन्तु उपरितनभागे पश्यतु, तत्र कपिलरूपत्वं कुत्रचित् आसीत् खलु लक्ष्यासु. शृङ्गित्वं सर्वासु लक्ष्यासु आसीत्, परन्तु लक्ष्यभिन्नस्थलेषु अपि आसीत्. परन्तु अधुना एकशपवत्वम् इति कुत्र अस्ति?
केवलम् अश्वे अस्ति, गोः नास्ति.
इत्युक्ते लक्ष्यसामान्य अवृत्तित्वं लक्ष्ये नास्ति एव इति, अतः लक्ष्यसामान्यभावः. अग्रे पठतु.
लक्ष्य सामान्य अभावः अतः असम्भवः इति उच्यते.
अस्तु, स्पष्टं स्यात् खलु? असम्भवदोषः लक्ष्यसामान्य अवृत्तित्वम् इति असम्भवदोषः.
गवि सर्वत्र द्विशपत्वं, सर्वासु गासु द्विशपत्वमेव अस्ति. मद्यतां लक्ष्यस्य एकदेशे कपिलरूपवत्वं न वर्तते स्म. आम्, लक्ष्यस्य एकदेशे कपिलरूपवत् रूपवत्त्वं न वर्तते
कीदृशदोषः सः?
तद् अव्याप्तिदोषः.
अव्याप्तिदोषः खलु. एकदेशे अवृत्तित्वं, लक्ष्यैकदेश अवृत्तित्वं, कपिलरूपवत्वम् इति अव्याप्तिदोषः. परन्तु अधुना किम् अस्ति?
तदत्र एकशभवत् विषये सामान्य अपि नास्ति. एकशपत्वं एकेव गोः अपि नास्ति एव.
एकस्यां गवि अपि नास्ति इत्युक्ते सामान्ये अपि, सामान्यम् इत्युक्ते सर्वाः इति, सर्वाः
सर्वाः
अस्तु.
अत्र
सामान्ये अपि नास्ति इत्युक्ते सामान्य लक्ष्यसामान्येषु इत्युक्ते लक्ष्य सर्वत्र, लक्ष्येषु सर्वत्र नास्ति. सामान्यमिति अत्र जातिः इति न, सर्वत्र इति स्वीकरोतु. कुत्रचिदपि एकशपत्वं नास्ति. अस्तु अग्रे.
अतः कपिलरूपवत्वविषये अव्याप्तिः एकशपवत् विषये, एकशपवत्वविषये असम्भवः.
यद् अवगच्छति तद् वदतु. अस्तु, दोषः अस्ति चेदपि चिन्ता नास्ति, वदतु. हा, कपिलरूपवत्वविषये कीदृशदोषः?
अव्याप्तिदोषः अस्ति तत्. किन्तु एकशपवत् विषये असम्भवः. कथम् इत्युक्ते पूर्वं यथा दृष्टम् एक एव गवे अपि एतत् लक्षणं नास्ति.
समीचीनम्. इत्युक्ते लक्ष्यसामान्ये अवृत्तित्वम्. अस्तु अग्रे. हरि ओम्. अस्तु, भानुचैतन्यमहोदय गतवान् इति भाति. अस्तु, नाम अत्र किं सारांशत्वेन लक्ष्यसामान्य अवृत्तित्वं नाम सर्वासु लक्ष्यासु नास्ति इति असम्भवदोषः. तर्हि कपिलरूपवत्वम् इत्यस्य अव्याप्तिदोषः, शृङ्गित्वम् इत्यस्य अतिव्याप्तिदोषः, अनन्तरम् एकशपवत्वम् इत्यस्य असम्भवदोषः इति आगतम्. तर्हि गोः लक्षणं किम् इति अग्रिमविषयः. अग्रे लक्ष्मी भगिनी पठति वा?
आं भगिनि, क्षम्यताम्, तर्हि गोः लक्षणं, गोः असाधारणधर्मः, को अर्हति? सास्नावत्वं. गोः कण्ठभागे अङ्गविशेषः भवति, चर्मविशेषः कण्ठभागे इतोपि चर्म बहिर्भागे अस्ति, कण्ठस्य अधोभागे लोलति सास्ना इति. सास्ना आश्रयत्वं गविमात्रमस्ति, अश्वे नास्ति, महिषे नास्ति, अलक्ष्यमहिषादौ न वर्तते, अपि च गोषु सर्वत्र वर्तते. श्वेतगौः वा स्वीक्रियतां, कपिलगौः वा स्वीक्रियतां, गोषु सास्नावत्वं भवति एव. इत्थञ्च सास्नावत्वं, सास्ना आश्रयत्वं गोः लक्षणम्. अस्तु, अधुना दृष्टवन्तः गोः लक्षणं, कपिलवत्वं, एकः रूपं स्वीकृत्य गोः लक्षणं न वक्तुं शक्नुमः. अव्याप्तिदोषः भवति. एकशपवत् शृङ्गित्वम् इति वदामः चेत् तत्र अतिव्याप्तिदोषः भवति. अलक्ष्ये अपि दोषः शृङ्गित्वं वर्तते. एकशपवत्वमिति काचन धर्मः स्वीक्रिय एकशपम् इति काचन धर्मः स्वीक्रियते चेत् तत्र अव्याप्तिदोष असम्भवदोषः भवति. सर्वासु गोषु एकशपवत्वं न भवति एव. तर्हि गोः लक्षणं किं भवति? केन किं कः धर्मः स्वीकृत्वा गोः असाधारणधर्मः इति वक्तुं शक्नुमः इत्युक्ते सास्नावत्वं. सास्नावत्वम् इत्युक्ते गोः कण्ठभागे कण्ठस्य अधोभागे चर्मः किञ्चित् अधिकचर्मः अधोभागे दृश्यते, तदेव सास्नावत्वम् इति. सास्ना इति संज्ञा कृता
तत्र आङ्ग्लभाषायां सास्ना इत्यस्य आङ्ग्लभाषायां ड्यूलाप् इति अहमपि न जानामि, दृष्टवती यदि तेन स्पष्टता आगच्छेत् वा इति. चर्मः अस्ति खलु, लूस् स्किन् इव अस्ति.
आमां
गोः कण्ठः सः एव.
कण्ठस्य अधोभागे लोलति सास्ना इति. लोलति इत्युक्ते हेङ्गिङ्ग् इति वक्तुं शक्नुमः
इत्येव भगिनि. लूस् स्किन् अस्ति खलु चर्मविशेषः,
सः विशेषः गवाम् एव भवति. अन्यत्र कुत्रापि अन्येषु लक्ष्येषु सः विशेषः न भवति एव. अतः गवि
अत्र अन्येषु लक्ष्येषु इति उक्तवती खलु.
आमां
हा, तस्य स्थाने अलक्ष्येषु इति वक्तव्यं, यतोहि अस्माकं
सत्यं भगिनि.
हा किन्तु समीचीना एव चिन्तनं, यतोहि अस्माकम् अन्यं लक्ष्यं नास्ति एव. लक्ष्यं तु एकमेव. लक्ष्यं किं?
गोः सर्वाः गोः
सर्वाः गावः
गावः सर्वाः गावः
हा अन्येषु लक्ष्येषु इति न वदामः, यतोहि गवां गाः विहाय अन्यत् सर्वम् अलक्ष्यमेव. अन्यलक्ष्यम् इति नास्ति एव.
आमां सत्यम्. अस्तु, अलक्ष्येषु न वर्तते एव. सास्ना इति धर्मः अन्येषु अलक्ष्ये न वर्तते एव. इत्युक्ते अलक्ष्ये इत्युक्ते उदाहरणत्वेन महिषः, अश्वः इत्यादि मृगेषु, अपि च गोषु, सर्वासु गोषु सास्नावत्वं वर्तते एव. अतः सर्वासु गोषु इत्युक्ते यत्किमपि रूपं यत्किमपि रूपं श्वेतः वा कपिलः वा यत्किमपि रूप गौः स्वीक्रियते, सास्नावत्वम् अस्ति एव इति कृत्वा सास्नावत्वमेव गोः असाधारणलक्षणम् इति, असाधारणधर्मः इति, असाधारणधर्मः इति कृत्वा तत् गोः लक्षणं भवति.
अस्तु, अन्तिमवाक्यम् इतोपि एकवारं पठतु.
आम्, इत्थञ्च सास्नावत्वं सास्ना आश्रयत्वं गोः लक्षणं. गोः तत्र मुद्रणदोषं भगिनि, गोः लक्षणम् इति
मुद्रणदोषः अस्ति. सत्यमेव. तर्हि अत्र अवधेयं यद् पदद्वयम् उक्तवती खलु, सास्नावत्वम् अपि च
सास्ना आश्रयत्वम्
इति समानार्थकपदद्वयम्. सास्ना वत् 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 इति यदा वदामः तदा आश्रयमेव सूचयति. वत् इति मतु प्रत्ययः, अस्य अस्मिन् वा इति. अस्मिन् किमपि अस्ति, अस्मिन् किमस्ति, सास्ना अस्ति, अतः सास्नावत् अथवा सास्नावती गौः. सास्नावती गौः इति आधाराधेयभावम् अधिकृत्य सास्नावत्त्वं सास्नावत् क्लेस्त्वम् इति भावः अथवा स्वभावः धर्मः निष्पद्यते. सास्नावत्त्वम् इत्युक्ते सास्नाश्रयत्वं, सास्नाश्रयत्वं गोः लक्षणं. सत्यम्, अत्र तु मुद्रणदोषः, लक्ष्यम् इति नास्ति. अस्तु भगिनि, अग्रे. सर्वेषां मनसि स्पष्टता अस्ति वा अधुना? सास्नावत्त्वम् इति तादृशधर्मः यस्य अतिव्याप्तिदोषः नास्ति, अव्याप्तिदोषः नास्ति, असम्भवदोषः अपि नास्ति इति वार्ता. अव्याप्तिदोषः नास्ति इति चेत् सर्वासु गोषु वर्तते सास्नावत्त्वम्. अतिव्याप्तिदोषः नास्ति इत्युक्ते गोभिन्नेषु स्थलेषु न वर्तते, असम्भवदोषः इत्युक्ते सर्वासु गोषु वर्तते एव, गोषु नास्ति इति विचारः नास्ति इति कृत्वा तादृशधर्मः अस्ति सास्नावत्वम्। अस्तु लक्ष्मी भगिनी, अग्रिमवाक्यद्वयम् अग्रे पठित्वा समापयतु कृपया।
अस्तु, असाधारणधर्मः सर्वेषु लक्ष्येषु भवेत्, अन्यत्र तादृशलक्षणम् असाधारणधर्म इति। अव्याप्तिः न भवेत्, अतिव्याप्तिः न भवेत्, असम्भवः न भवेत्। अतः उच्यते यत् अव्याप्ति अतिव्याप्ति असम्भवदोषरहित असाधारणधर्मः लक्षणम्। अस्तु, असाधारणधर्मः इति किम् अस्ति इत्युक्ते तादृशधर्मः अलक्ष्येषु न भवेत्। यस्य लक्षणं वयम् इच्छामः लक्ष्ये यस्य लक्षणं वयम् इच्छामः तत् लक्ष्यं भवति, लक्ष्येषु एव तादृशधर्मः भवेत्, कुत्रापि न भवेत्। दोषः तस्मिन् लक्षणवाक्ये अव्याप्तिदोषः न भवेत्, अतिव्याप्तिदोषः न भवेत्, असम्भवदोषः न भवेत् इति असाधारणधर्मस्य लक्षणम्। असाधारणधर्मस्य लक्षणमपि एते त्रय दोष त्रयः त्रयः दोषाः रहिताः भवेत्।
हा, समीचीनं भगिनि। दोषत्रयराहित्यं दोषत्रयराहित्यम् इति आगच्छति। दोषत्रयं कुत्र कुत्र वर्तेत? यदि दोषः अस्ति चेत् सः दोषः कुत्र अस्ति?
अलक्ष्ये अस्ति, अलक्ष्ये अस्ति उच्यते।
मम प्रश्नः साधारणप्रश्नः। अव्याप्तिदोषः अतिव्याप्तिदोषः असम्भवदोषः इति जानीमः, इति सत्यमेव खलु? परन्तु इमे दोषाः यदि स्युः कुत्र स्या कुत्र स्युः?
लक्षणे लक्षणवाक्ये भवति।
लक्षणवाक्ये नाम लक्षणे खलु?
लक्षणे भवति। आम्,
अव्याप्तिदोषः कुत्र इति चेत् कपिलरूपवत्वे। अतिव्याप्तिदोषः कुत्र इति चेत् शृङ्गित्वे।
आम्, अस्तु।
असम्भवदोषः कुत्र इति चेत् कुत्र?
एकशपवत्वे।
एकशपवत्वे इति दोषरहित दोषत्रयराहित्यमेव असाधारणधर्मः लक्षणम् इति वक्तुं शक्नुमः। अस्तु, यः कोऽपि धर्मः एभिः त्रिभिः दोषैः न युक्तः तादृशः धर्मः असाधारणधर्मः, अपि च असाधारणधर्मः एव लक्षणम् इति उच्यते। अस्तु,
अस्तु भगिनि,
समीचीनं भगिनि। कोऽपि प्रश्नः वा अत्र एतावता? अग्रे गत्वा किञ्चित् अस्मिन् करपत्रे व्याकरणसम्बद्धविषयाः, परन्तु असाधारणधर्मलक्षणम् इत्युक्ते किम् इति एतावता ज्ञातवन्तः। एतत् सर्वं पठित्वा अव्याप्ति अतिव्याप्ति असम्भवदोषरहित असाधारणधर्मः लक्षणम् इति आगच्छति। अस्तु, तर्हि इतः अग्रे किञ्चित् वत्वं वत्वम् इति वदामः खलु, तस्य विषये जानीमः। तस्मात् पूर्वं तत्र जगन्नाथमहोदय अग्रे पश्यति वा गोशब्दस्य धेन्वर्ते स्त्रियामिति, किञ्चित् पठतु तत्र। जगन्नाथमहोदय अस्ति किम्? अस्तु, रामाबाय् भगिनि।
गो शब्दः देन्वत्ते स्त्रियां च, गौः गावौ गावः, गां गावौ गाः, गवा गोभ्यां गोभिः, गवे गोभ्यां गोभ्यः, गोः गोभ्यां गोभ्यः, गोः गवोः गवां, गवी गवोः गोषु।
अस्तु भगिनि, एवं करोतु, गोशब्दः वयं गोशब्दं वयं वारं वारम् अत्र प्राप्नुमः खलु, परन्तु तस्य रूपाणि सर्वेषां मनसि न सन्ति इति भाति. धेनुः इति सामान्यशब्दः, तत्तु वयं जानीमः. तर्हि एवं करोतु भगिनि, एकवारं लघु लघु वाक्यं रचयतु. नाम गौः इति कोऽपि ध्वनिः अस्ति भगिनि भवत्याः पृष्ठभागे?
प्रश्नः न,
अस्तु भवत्याः, अस्तु एकं लघु लघु वाक्यं रचयतु. यथा इयं गौः, इमे गावौ, इमाः गावः, अथवा एषा गौः, एते गावौ, एताः गावः. तद्वत् द्वितीयविभक्त्यां वाक्यं रचयतु.
एतां गां, एते गावौ, एताः गाः.
हा, बहु समीचीनं. तर्हि द्वितीयविभक्त्यां गां, गावौ, गाः इति कोऽपि वदति चेत्, अस्तु एवं वाक्यं रचयतु. गां गां पश्यतु, गावौ पश्यतु, गाः पश्यतु, तथा.
एतां गां पश्यतु, एते गावौ पश्यतु, एताः गाः पश्यतु, एतां गा एतां गां कपिलवर्णः अस्ति.
न न न न न, तत्रैव दोषः. तत्र कपिलवर्ण, एषा गौः कपिलरूपवती अस्ति.
एषा गौः कपिलरूपवती अस्ति. कपिलरूपवती गां पश्यतु. कपिलरूपवतीं गां पश्यतु. कपिलरूपवती गवा सह तस्याः,
कस्यां विभक्त्यां वदति अधुना, द्वितीयाविभक्त्यां वा तृतीयाविभक्त्यां?
कपिलरूपवतीं गां तत्र गच्छति.
भगिनी पुनः सः एव दोषः. कपिलरूपवती गौः गच्छति खलु, प्रथमाविभक्ति अहमेकं वदामि. कपिलरूपवती गौः गच्छति, कपिलरूपवत्यौ गावौ गच्छतः, कपिलरूपवत्यः गावः गच्छन्ति. हा, द्वितीयाविभक्त्यां यथा भवती उक्तवती, कपिलरूपवतीं गां पश्यतु. कपिलरूपवत्यौ गावौ पश्यतु.
गाः पश्यतु.
बहु समीचीनं, यतोहि नदीः इति अस्ति खलु द्वितीया बहुवचनं, तद्वदेव कपिलरूपवतीः गाः पश्यतु. अस्तु तृतीयाविभक्त्यां प्रयत्नं करोतु भगिनि. सः
कपिलरूपवता गवा सह तस्याः वत्सः अपि गच्छति.
हा, बहु समीचीनम्. एकः एव दोषः अत्र, कपिलरूपवत्या इति वक्तव्यं.
कपिलरूपवत्या,
अस्तु तद् कपिलरूपवत्या इति विस्मरतु. केवलं गवा सह वत्सः गच्छति. अस्तु, गवा सह वत्सः गच्छति. अग्रे भगिनी कपिलरूपवती इति त्यजतु, गोभ्यां सह इति वदतु, तावदेव पर्याप्तं.
गोभ्यां कपिलरूपवत्यां कपिलरूपवती कपिलरूपवद्यां
भगिनी कपिलरूप तदर्थमेव वदामि कपिलरूपवती त्यजतु कपिलरूपवतीभ्यां गोभ्यां सह
गोभ्यां सह ताभ्यां वत्सः
गच्छति
वत्सः गच्छन्ति गच्छतः गच्छतः
अस्तु अग्रे गोभिः
सह ताभिः वत्सः गच्छन्ति
ताभिः न तयोः किमपि वक्तव्यं तथा अस्तु
गोभिः तयो
अस्तु भवतु नाम तृतीयाविभक्त्यां गवा गोभ्यां गोभिः इति चतुर्थीविभक्त्यां गवे गोभ्यां गोभ्यः इत्युक्ते हा गवे किं तृणं ददातु तृणम् इत्युक्ते ग्रास् गवे ददातु इत्यनेन सह चतुर्थीविभक्ति खलु गवे तृणं ददातु गोभ्यां तृणं ददातु गोभ्यः तृणं ददातु गोः इति पञ्चमी विभक्ति तत्र किं गोः दुग्धं गोः दुग्धम् अथवा क्षीरम् आनयतु गोतः इति गोः गोभ्यां क्षीरम् आनयतु गोभ्यः गोभ्यः क्षीरम् आनयतु तथा अधुना षष्टिविभक्तिः तु समीचीनमस्ति खलु तर्हि कपिलरूपं कस्य वर्णः अथवा कपिलरूपं कस्य रूपम् इति चेत्
गोः वर्णः कपिलरूपं गवोः वर्णः कपिलवर्णं गवां रूपः कपिलवर्णः
रूपम् इति नपुंसकलिङ्गपदं गोः रूपं कपिलरूपं गवोः रूपं कपिलरूपम् अथवा गवाम् इति
गवां रूपं कपिल अस्तु
गवां जातिः का कपिलरूपवत्वं तु यदि अस्ति नो चेत् गवां जातिः गोत्वं खलु अस्तु गवि विषये किञ्चित् वदतु अस्तु कपिलरूपवती गवि इति चेत् कपिलरूपवती गौः इति वदामि अहम् अस्तु कपिलरूपवती गौः इति चेत् गवि किमस्ति गवी कपिलरूपवत्वम् अस्ति इति वदामः
गवी कपिलरूपत्वम् अस्ति गवोः
गवोः कपिलरूपवत्वम् अस्ति
कपिलरूपवत्वं सः गोषु कपिलरूपवत्वं सन्ति
तद् कथं सन्ति स्तः भवति कपिलरूपम् इति एकमेव कपिलरूपवत्वं खलु कर्तृपदं गवे कपिलरूपवत्वम् अस्ति गवोः कपिलरूपवत्वं पुनः अस्ति
गवोः कपिलरूपत्वं सः
ओ अस्तु कपिलरूपद्वयम् इति स्वीकृत्य खलु तदपि
कपिलरूपवत्वं वा
गवोः कपिलरूपे स्तः इति वक्तव्यं गवी कपिलरूपम् अस्ति चेत् गवोः कपिलरूपे स्तः गोषु कपिलरूपाणि सन्ति सन्ति इति वक्तव्यम् अस्तु तर्हि इदं स्वीकृत्य कृपया गृहे अपि अभ्यासं कुर्वन्तु सर्वे गोशब्दविषये कष्टम् अनुभवन्ति अहमपि खलु धेनु इति साधारणतया प्रयुज्महे इति कृत्वा गौः इति प्रायः काठिन्यं स्यात् तत्र, तदर्थं कृपया अभ्यासं कुर्वन्तु. अस्तु, गाः द्वितीयाविभक्ति, गवां षष्ठीविभक्ति सामान्यतया उपयोगः भवति. अपि च गोषु इति वारं वारं वदामः, गोषु गोत्वम् इति, तथा अभ्यासं कुर्वन्तु इति. अस्तु भगिनि, अग्रे पठतु. ये जनाः
ये जनाः वत्वं विषये न जानन्ति तेभ्यः इदं गुणवान् इत्युक्तौ अस्य अस्मिन् मा गुणः वर्तते गुणवान्. गुणवान् इत्युक्ते अस्य अस्मिन् मा गुणः वर्तते सः गुणवान्. मतुम् इति प्रत्ययः, मतुम् इति प्रत्ययः, मतुम् इत्यस्य अर्थः अस्य अस्मिन् वा इति. प्रतिपादिकं मूलरूपं गुणवत् इति. स्वप्रत्ययः
एतद् अवगतं वा? किञ्चित्
वदतु. अस्य अस्मिन् वा गुणः वर्तते सः गुणवान्. मतुं इत्यस्य अर्थः
प्रत्ययः अस्ति, प्रत्ययः इति जानाति वा?
गुणवान् गुणवत् इति भवति. मूलरूपं गुणवत् अस्ति, मूलरूपं गुणवत् अस्ति.
मूलरूपम् इत्युक्ते अस्तु भगिनि, अहं किञ्चित् वदामि अत्र, किञ्चित् म्यूट् करोतु भगिनि. अस्तु, अत्र गुणः इत्यस्मात् गुणः अस्य अस्मिन् वा अस्ति इत्यस्मिन् अर्थे मतुप् इति प्रत्ययः. मतुप् प्रत्ययस्य कार्यं तदेव, यत्किमपि अथवा यत्किञ्चित् कुत्र अस्ति इति दृष्ट्वा तस्मात् मतुप् इति प्रत्ययः. गुणवान् इति मतुप् मधुबन्धप्रत्ययः. स्त्रीलिङ्गे गुणवती, नपुंसकलिङ्गे गुणवत्. अधुना वयं गन्धवती पृथ्वी इति वदामश्चेत् गन्धः अस्याम् अस्ति इति कृत्वा गन्धवती इति आगच्छति. मूलं प्रातिपदिकमस्ति गन्धवत्, स्त्रीलिङ्गे गन्धवती. तदेव नपुंसकलिङ्गे तमेव शब्दं वदामश्चेत् गन्धवान् इति भवति, अथवा गन्धवत् इति. गन्धवती पृथ्वी, अथवा किं गन्धवत् पुष्पं, गन्धवान् वृक्षः, तथा. मतुप् प्रत्ययः किमपि कुत्रचित् अस्ति इति सूचयति. तद्वदेव इनि इति प्रत्ययः, यथा गुणी गुणिनी गुणि इति आसीत् तद्वत् गुणवान् गुणवती गुणवत् इति त्रिषु लिङ्गेषु रूपाणि भवति. मतुप् इति एकः प्रत्ययः इति मनसि भवेत्. कपिलरूपवत्त्वम् इति यदा वदामः तत्र प्रथमतया कपिलरूपवत् इति मतुप् प्रत्ययं योजयित्वा किमपि प्रातिपदिकं निष्पन्नं भवति. गौः कपिलरूपवती इति चेत् गवी कपिलरूपम् अस्ति इति आगच्छति. कपिलरूपवती गौः, कपिलरूपवत्त्वं गवी अस्ति इति अपि वक्तुं शक्यते. स्पष्टता अस्ति वा सर्वेषां मनसि? पूर्णतया न्यायशास्त्रे मतुप्त्व मतुप्त्व बहुवारं दृश्यते, तर्हि सम्यक्तया अवगमनं भवेत् अस्य इति. प्रश्नः सन्ति चेत् अथवा भ्रमः अथवा भ्रमः
मेडम्, कपिलरूपवत्त्वं कपिलरूपत्वं डिफरेन्स्
इति समीचीनं भगिनि. अग्रे पश्यामः अधुनैव पश्यामः. अस्तु विजय भगिनि, मतुप् इति एकः प्रत्ययः भगिनि. प्रत्ययः इत्युक्ते सफेक्स् इति. गुण प्लस् मतुप् गुणवान् प्रातिपदिकं प्रातिपदिकं गुणवत् इति प्रातिपदिकात् त्रिषु लिङ्गेषु रूपाणि भवन्ति खलु तर्हि गुणवान् गुणवती गुणवत्
अस्तु
अस्तु विजय भगिनी भवत्याः प्रश्नस्य उत्तरम् अधुनैव प्राप्यते अग्रे पठेम किञ्चित् अस्तु अस्तु अग्रे
धन्यवादः
बालसुब्रह्मण्य महोदय अग्रे पठतु कृपया महोदय अस्ति वा बालसुब्रह्मण्य
घटत्वं घटः भूतलम्
न न न एकनिमिष कुत्र अस्ति भवान् त्व प्रत्ययः इत्युक्ते
जनः विषये गुणवान् इत्युक्तौ अस्य अस्मिन् गुणः वर्तते सः गुणवान् मतुप् इति प्रत्ययः मतुप् इत्यस्य अर्थः अस्य अस्मिन् वा इति प्रातिपदिकं मूलरूपं गुणवत् इति एवं गतः किल
तदभवत् अग्रे पठतु महोदय
त्वप्रत्ययः इत्युक्ते अस्य भावः घटत्वम् इत्युक्ते घटस्य भावः उन्नतत्वम् उन्नतस्य भावः गुणवत्वं गुणवतः गुणवान् इत्यस्य भावः घटत्वं घटे अस्ति उन्नतत्वम् उन्नते अस्ति गुणत्वं गुणवति अस्ति
अत्र उच्चारणस्य महान् महत् प्रामुख्यमस्ति गुणवत्वम् इति वक्तव्यं
गुणवत्वं गुणवति अस्ति
अस्तु अधुना प्रतिपादयतु महोदय
महोदय एतस्मात् पूर्वम् अस्य अस्मिन् वा इति इत्यस्य अर्थः कः
महोदय
षष्टिविभक्ति अथवा सप्तमीविभक्ति अस्य
अस्य षष्टिविभक्ति अस्मिन् सप्तमीविभक्ति एतत् अहं जानामि
एकम् उदाहरणं ददामि धनः धनम् इति क्षम्यतां धनम् इति नपुंसकलिङ्गं धनं धनम् अस्य अस्ति इति धनवान् तत्र मतुप्रत्ययः जगन्नाथमहोदय मतुप्रत्ययः युज्यते अस्य इत्यस्य अर्थे न तु अस्मिन् इत्यस्य अर्थे धनं मम अस्ति मम कोशे नास्ति धनं तु बेङ्क् मध्ये अस्ति खलु किन्तु धनं मम एव धनम् अस्य इति धनवान् धनवती यद्यपि मयि नास्ति धनं तथापि मतुप्रत्ययः तादृशं तादृश अर्थे अपि मतु धनवान् धनवती परन्तु न्यायशास्त्रे बहुत्र अस्य इत्यस्मिन् अर्थे गन्धवती पृथ्वी इति वदामश्चेत् तत्र गन्धः अस्याम् अस्ति कस्यां पृथिव्याम् अतः सा गन्धवती गन्धवत् पुष्पम् इति चेत् गन्धः अस्मिन् पुष्पे अस्ति अस्मिन् अर्थे मतुप् गन्धवत् पुष्पम् उदम् कपिलरूपम्
अस्तु धन्यवादः
अग्रे स्वप्रत्ययः
स्वप्रत्ययः इत्युक्ते अस्य भावः भावः इति धर्मः किल महोदय
समानः एव भावः इत्युक्ते किमपि कस्मिन् अस्ति इति सूचयति सुन्दरः सुन्दरस्य
गुणत्वं वृद्धिः वृद्धित्वम् इत्यादि त्व इति सफिक्स् योजनेन भावः इति अर्थं अहं वयं सूचितवन्तः घटत्वम् इत्युक्ते घटस्य भावः उदाहरणरूपेण त्वम् इति घटत्वम् इत्युक्ते घटस्य भावः
अपि च मनसि भवेत् यत् त्वप्रत्ययस्य योजनेन धर्मः निष्पन्नः भवति घटे घटत्वम् इति यः भावः अस्ति सः एव धर्मः घटे विद्यमानः पटे पटत्वम् इति भावः पटे विद्यमानः धर्मः सुन्दरे सुन्दरत्वम् इति यः भावः अस्ति वस्तुतः सुन्दरपुरुषे सः धर्मः एव धर्मः इत्युक्ते कुत्रचित् भवति इति अर्थः इति धर्मः, घटत्वं, पटत्वं, सुन्दरत्वम् इति धर्माः अथवा भावः. भाववाचकप्रत्ययः कः अत्र? अधुनैव पठितं कः प्रत्ययः? भावसूचकः समीचीनम्. अस्तु अग्रे.
घटत्वम् इत्युक्ते घटस्य भावः, एवमेव उन्नतत्वम् उन्नतः इत्यस्य भावः धर्मः उन्नतत्वम्, उन्नतस्य भावः उन्नतत्वम्, एवमेव गुणत्वं
गुणवत्. अत्र महान् भेदः अस्ति. गुणत्वम् इति न वक्तव्यं, गुणत्वम् इति कस्य भावः?
गुणत्वम् इति गुणः
प्लस् त्वं,
प्लस् त्वं
गुणस्य भावः खलु.
गुणत्वं
किल सत्यं, बहु समीचीनं. परन्तु अग्रिमवाक्ये किम् अस्ति? गुणत्वम् इति अस्ति वा
गुणवत्त्वं? गुणवत्त्वं गुणवतः, क्षम्यतां महोदय, गुणवत्त्वं गुणवतः गुणवान् इत्यस्य भावः. गुणवत्त्वं गुणवान् गुणवत् अथवा गुणवती, प्रायः धर्मः गुणवत्त्वम् इति किल.
बहु समीचीनं. गुणवान् इत्यत्र प्रातिपदिकं किं?
गुणवत् इति.
गुणवत्, गुणवत् प्लस् त्वं शब्दः कः?
गुणवत्त्वम्.
गुणवत्त्वम् इति गुणवतः षष्ठीविभक्ति खलु. गुणवतः भावः, यथा घटस्य भावः घटत्वं, गुणवतः भावः गुणवत्त्वम्. समीचीनम्. अस्तु अग्रे.
घटत्वं घटे अस्ति, उन्नतत्वम् उन्नते अस्ति, गुणवत्त्वं गुणवति अस्ति, गुणवत्त्वं गुणवति अस्ति, उन्नतत्वम् उन्नते अस्ति, घटत्वं घटे अस्ति.
इति सर्वत्र आधाराधेयभावः सूचितः तावदेव. घटत्वम् इति भावः कुत्र अस्ति? घटे. गुणवत्त्वं कुत्र अस्ति? गुणवत् तस्य सप्तमी विभक्ति गुणवति. पुनः कृपया गृहे हलन्तशब्दाः सन्ति खलु, भवान् शब्दवत्, तस्य सप्तविभक्तिषु रूपाणि किञ्चित् एकवारं परिशीलयन्तु. भवान् तस्य सप्तमी विभक्ति भवति, तद्वदेव. जगत् जगति, गुणवत् गुणवति, गुणवत्त्वं गुणवति अस्ति. वस्तुतः गुणवान् इत्यस्य कथनेन गुणः अस्मिन् अस्ति इति आगच्छति. पुनः गुणवत्त्वम् इति कथनेन पुनः सः एव अर्थः, गुणः अस्मिन् अस्ति इत्येव अर्थं सूचयति. अस्तु अग्रे पठतु महोदय, अन्यत् किमपि नास्ति अत्र, अग्रे पठतु. दृष्टान्ते
दृष्टान्ते भूतलं घटः घटत्वं, भूतलं घटः घटत्वं. दृष्टान्ते भूतलं घटः घटत्वं घटे
अग्रे पठतु अग्रे पठतु भूतले
भूतले कश्चन घटः अस्ति, घटे घटत्वम् अस्ति, एवञ्च स्थरत्रयं वर्तते. घटत्वं घटः भूतलम् एतानि त्रीणि स्तराः सन्ति.
त्रयः स्तराः सन्ति अथवा किं स्तरम् इति नपुंसकलिङ्गं वा न जाने.
स्तरः
त्रीणि स्तरः इति पुल्लिङ्गपदमेव. त्रयः स्तराः स्तराः सन्ति इति सत्यम्. अस्तु अस्य आधारेण अधुना वत्त्वम् इति कुत्र भवति इति परिशीलयामः. मनसि भवेत् यद् भूतलम् अस्ति, भूतले घटः अस्ति, घटे घटत्वम् इति त्रयः स्तराः, त्री लेवेल्स् लेवेल्स् इति. अधोभागे भूतलं, तस्य उपरि घटः, घटस्य उपरि घटत्वम्.
भूतले घटः अस्ति, घटे घटत्वम् अस्ति, भूतलत्वम् इति
भूतलत्वं कुत्र अस्ति? समीचीनं, भूतलत्वं कुत्र अस्ति?
भूतलत्वे अस्ति,
भूतलत्वे अस्ति. अस्तु, अस्तु, इति चिन्तनं समीचीनं जातं. परन्तु अधुना पश्यामः वत्त्वं विषये इतोपि किञ्चित् स्पष्टता प्राप्येत अग्रिमपरिच्छेदं पठित्वा. अस्तु, जगन्नाथमहोदय पठितुम् इच्छति वा? भवतः नाम अहम् उक्तवती, भवान् नासीत्, पठति न वा महोदय?
एकनिमिष, अस्तु. सर्वोपरितने स्तरे घटत्वम् अस्ति, मध्यमस्तरे घटः अस्ति, अधोभागे भूतलम् अस्ति. उपरि गमनार्थत्वप्रत्यये योजयामः, अधोभागे गमनार्थं मतु पुंसि वान् स्त्रियां वती नपुंसके वत् इति प्रत्ययं योजयामः. अतः घटत्वम् इत्यस्मात् घटस्य दिशि गन्तुम् इच्छामश्चेत् मतुप् योजयामः. इत्युक्ते किं
घटत्वया पठतु, अनन्तरं परिशीलयामः.
अस्तु, एकनिमिष, वयं अहं कुत्र आसम् इति लास्ट् मै स्पाट्. गीते घटः योगः मतु घटवत् भूतलवाचकपदम्, अतः नपुंसके घटवत् एव, घटवत् भूतलम्. अस्तु, घटवत् इत्यस्य भावसिद्ध्यर्थं त्वप्रत्ययं योजयामः. घटवत् योग त्व घट घटवत्त्वं, घटवत्त्वं घटस्य स्तरे वर्तते. नियतलिङ्गत्वात् नपुंसके घटवत्त्वम् एव. पुनः अधोभागे गमनार्थं मतुप् योजयामः. घटवत्त्वं योगः मतुप् घट घटवत्त्वत् घटवत्त्वत्
घटवत्त्ववत्
घटवत्त्ववत् घटवत्त्ववत् घटवत्त्वस्य आश्रयः अपि च भूतलवाचकपदम् अतः अधोभागे वर्तते. तर्हि आहत्य परिणामः एवम्.
अस्तु महोदय, अधुना तस्य परिशीलनात् पूर्वं प्रथमतया आरम्भतः पठतु.
सर्वोपरितने स्तरे घटत्वम् अस्ति, अस्तु, उपरि अस्ति, मध्यमस्तरे घटः अस्ति, अधोभागे भूतलमस्ति. अस्तु, एतद् स्वयं सिद्धम्. अस्तु, उपरि गमनार्थं त्वप्रत्ययामः योजयामः, यथा घटत्वम् अस्ति उपरि, अधोभागे गमनार्थं मतु प्रत्यय योजयामः इति प्रत्ययं योजयामः. अतः घटत्वम् इत्यस्मात् घटस्य दिशि गन्तुं
वस्तुतः तत्र अन्यत् किमपि अस्ति खलु, मतु किम् अस्ति आवरणे, पुंसि वान् स्त्रियां वति नपुंसकलिङ्ग इति प्रत्ययं योजयामः. अधुना भूतलं कीदृशम् इति कोऽपि पृच्छति चेत् कथं वदति भूतलम्?
घटवत्
हा, तदर्थमेव अहं तत्र सूचितवती नपुंसके वत् इति अस्ति, भूतलं नपुंसकलिङ्गपदं, तस्मिन् घटः अस्ति. तर्हि कथं वदति भूतलं
कीदृशं?
घटवत् भूतलम् इति वदति खलु. अधुना अग्रे गच्छतु.
अस्तु, अतः घटत्वम् इत्यस्मात् घटस्य दिशि गन्तुम् इच्छामश्चेत् मतुप् योजयामः. घटस्य दिशि इत्युक्ते उपरि भूतलात् उपरितनं वा?
भूतलात् उपरि इति सत्यं, परन्तु अत्र किं घटत्वात् अधः गमनं खलु. भूतलात् उपरि गमनार्थं भूतलत्वम् इति आगतं महोदय, इति सत्यमेव. अत्र वार्ता का? घटत्वम् इत्यस्मात् अधः गमनं खलु, घटं प्रति गमनम् इत्युक्ते अधः गमनं किल.
अस्तु,
अधोगमनार्थं मतुप् उपरि गमनार्थं त्व
अस्तु अस्तु
घटत्वम् इत्यस्मात् घटस्य दिशि नाम अधोगमनार्थं मतुप् योजयामः चेत् किं भवति तत्र अग्रे पठतु
घटवान्
घटवान् कः
घटवान् एव तर्हि घटवत् भूतलम् इति अधोभागे
इति साधितमेव समीचीनं घटवत् भूतलम् इति समीचीनं परन्तु अस्माकं तृतीयवाक्यं किम् अस्ति तत्र घटत्वम् इत्यस्मात् स्टार्टिङ्ग् पायिण्ट् घटत्वं खलु घटत्वम् इत्यस्मात् घटस्य दिशि गमनम् इति वार्ता पुनः मतुप् योजयतु तत्र अग्रे पठतु अवगच्छति मतुप् प्रत्ययस्य
मतुप् प्रत्ययस्य योजनेन आश्रयत्वं प्राप्यते घटत्वं योगः मतुप् घटत्ववत् अस्तु घटवाचकपदम् अतः पुंसि घटत्ववान् घटत्ववान् घटः घटात् भूतलस्य
किञ्चित्
अस्तु 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 घटत्वं घटत्वे मतुप्रत्यययोजनेन घटत्ववत् इति भवति तर्हि घटत्ववत् इत्युक्ते घटवाचकपदम् इत्युक्ते
इत्युक्ते घटवाचकपदम् इति अस्तु घटवत् भूतलम् इति वदामश्चेत् तत्र घटवत् इति भूतलवाचकपदं खलु
आम्
भूतलस्य विशेषणम् अथवा भूतलवाचकम् एवमेव घटत्वम् इत्यस्मात् आरभ्य अधोगमनार्थं घटं प्रति गमनार्थं घटत्व प्लस् मतुप् घटत्ववत् इति प्रातिपदिकं परन्तु घटत्ववत् कं सूचयति
क्षम्यतां भगिनी मया तु इदानीं गन्तव्यं मम समयः जातः अन्यवर्गः अपि अस्ति मम
समीचीनं विद्या भगिनी समापयति वा
अत्र मतुप्रत्ययस्य योजनेन आश्रयत्वं प्राप्यते घटत्वं योगः मतुप् घटत्ववत् घटवाचकपदम् अतः पुंसि घटत्ववान् घटत्ववान् घटः तर्हि घटत्वं तत्र मतुप्रत्ययं योजयामः चेत् घटत्ववत् इदानीम् अत्र आश्रयः अस्ति घटः अतः पुंसि क्षम्यतां भगिनी अत्र किञ्चित् ध्वनिः अस्ति घटत्ववान् घटः इति आगच्छति घटत्ववान् घटः इत्युक्ते घटः एव
समीचीनं नाम अधोभागे गमनार्थं मतुप् आश्रयसूचनार्थं घटत्ववान् घटः अस्तु अग्रे
घटात् भूतलस्य दिशि गन्तुम् इच्छामः चेत् मतुप् योजयामः पुनः अधोभागे गमनार्थं मतुप् प्रत्ययः योजयामः घटः योगः मतुप् घटवत् घटवत् भूतलवाचकपदम् अतः नपुंसके घटवत् एव इदानीं घटः अस्ति तस्य अधोभागे भूतलम् अस्ति अधोभागे गमनात् पुनः मतुप्रत्ययः योजयामः घटः योगः मतुप् घटवत् इदानीं भूतलं नपुंसकलिङ्गे अस्ति इति कृत्वा घटवत् भूतलम् अनन्तरं घटवत् इत्यस्य भावसिद्ध्यर्थं त्वप्रत्ययं योजयामः घटवत् योगः त्व घटवत्त्वं घटवत् इति अधोभागे गमनार्थं घटवत् इति प्राप्तम् इदानीं तत्र भावप्रत्ययं योजयामः त्वप्रत्ययं योजयामः चेत् तत्र घटवत् प्लस् त्व घटवत्त्वं घटवत्त्वं घटस्य स्तरे एव वर्तते घटवत्त्वम् इति धर्मः अस्ति तर्हि घटस्य स्तरे एव वर्तते घटवत्त्वम् इति धर्मः अस्ति घटे नियतलिङ्गत्वात् नपुंसके घटवत्त्वम् एव त्वप्रत्ययः नियतलिङ्गत्वात् नपुंसकलिङ्गे इति तत् न मया न अवगतम्
इत्युक्ते त्वप्रत्ययः सर्वदा नपुंसकलिङ्गे
अस्तु अस्तु धर्मं सूचयति अस्तु त्वप्रत्ययः नपुंसकलिङ्गे
सुन्दरत्वम् उन्नतत्वम् इति
हा अस्तु समीचीनं हा घटवत्त्वं घटस्य स्तरे वर्तते नियतलिङ्गत्वात् नपुंसकलिङ्गे घटवत्त्वम् एव अस्तु पुनः अधोभागे गमनार्थं मतुप्रत्ययः योजयामः इदानीम् अत्र घटवत्त्वम् इति धर्मः अस्ति पुनः घटवत्त्वं तु घटस्य स्तरे एव अस्ति ततः अधोभागे गमनार्थं भूतलस्तरे गमनार्थं घटवत्त्वं प्लस् पुनः मतुप्रत्ययः अधोभागे गमनार्थं मतुप्रत्ययः तर्हि घटवत्त्वं योगः मतु तर्हि घटवत्त्ववत् घटवत्त्ववत् इति आगच्छति घटवत्त्ववत् इति पुनः आश्रयम् एव सूचयति घटवत्त्वस्य आश्रयः अपि च भूतलवाचकपदम् अतः नपुंसकलिङ्गे घटवत्त्ववत्
हा भूतलवाचकं घटवत्त्ववत् अस्तु पुनः सर्वे परिशीलयन्तु गृहे केवलं मतुप्त्व इत्येषां क्रीडा तावदेव उपरि गमनार्थं भावं निष्पादयितुं किं त्वा अधोगमनार्थम् आश्रयं सूचयितुं मतुप् इति अस्तु लक्ष्मी भगिनी अग्रे पठित्वा किञ्चित् समापयतु उपरितनस्तरे एतद् किमपि अस्ति खलु
आम् भगिनि उपरि स्तरे घटत्वं मध्यमस्तरे घटवत्त्ववान् घटः घटवत्त्वम् अधमस्तरे घटवत् भूतलं घटवत्त्ववत् इत्युक्ते अधमस्तरे अधमस्तरे भूतलमस्ति भूतलं घटवत् भूतलं घटवत् इति पदात् उपरि गच्छामः चेत् तत्र घटवत् मतुप्रत्यययोजनेन घटवत्त्ववान् क्षम्यतां घटत्ववान् इति आगच्छति अनन्तरं भूतले घटः अस्ति इति साधारणवाक्यम् अनन्तरं भूतलं घटवत्त्ववान् इति कृत्वा घटवत्त्ववत् इति भावः भूतले अस्ति
इत्युक्ते वस्तुतः भूतलं कीदृशम् इति चेत् भूतलम् अधमस्तरे यत्किमपि अस्ति भूतलं घटवत् अथवा भूतलं तावदेव घटः कीदृशः इत्युक्ते घटः घटत्ववान् यतोहि घटत्वम् इति उपरि स्तरे तस्मात् अधः घटः घटस्य दिशि मतु घटत्ववान् अथवा घटवत्त्वं भूतले अस्ति इति वक्तुं शक्यते अथवा घटवत्त्ववत् घटवत्त्ववान् भूतलम् इति वक्तुं शक्यते
अधुना गोः विषये स्थितिः अपि तथैव गोः कपिलरूपवती चेत् कपिलरूपवत्त्वम् इति भावः गवी अस्ति शृङ्गित्वम् अपि गवी अस्ति अतः गौः शृङ्गवती च शृङ्गित्ववती चेत् गोः विषये अपि यथा भूतलं भूतले घटे इत्युक्ते यदि गोः कपिलरूपवर्णमस्ति चेत् कपिलरूपवती गौः अतः कपिलरूपवत्त्वम् इति भावः गवी अस्ति यदि गविशृङ्गमस्ति चेत् शृङ्गी गविशृङ्गी अस्ति शृङ्गित्वम् इति भावः गवी अस्ति अतः गवि शृङ्गवती शृङ्गित्ववती इति वदामः
शृङ्गी इति पुनः इनि प्रत्ययः शृङ्गित्वं गवी अस्ति अथवा शृङ्गवती गौः इति कृत्वा शृङ्गवत्त्वम् अथवा शृङ्गवत्त्वं गवी अस्ति अथवा शृङ्गत्ववती गौः अस्तु
अस्तु अस्तु
समीचीनं तर्हि अद्य त्वा मतु विषये बहु किमपि वयम् अधीतवन्तः कृपया पुनः पठन्तु इति यतोहि अग्रिमवर्गात् आरभ्य लक्षणग्रन्थे गन्धवत्वं पृथिव्याः लक्षणम् इत्यादिकं पठामः तत्र एतस्यैव उपयोगः भवति इति अस्तु कोऽपि प्रश्नः
धन्यवादः भगिनि बहु समीचीनं पाठितं धन्यवादः
भगिनि नमस्कारः
धन्यवादः
धन्यवादः महोदये हरि ओम्